त्वा मृगं काञ्चनम् वैदेहि हरणं जटायुमरणं सुग्रीवसंभाषणम् बालीनिर्दलनं समुद्रतरणं लङ्कापुरीदहनम् पश्चाद् रावणकुम्भकर्णहननम् एतद्धि रामायणम् तपोवनादिगमनं हत्वा मृगं काञ्चनम् वैदेहि हरणं जटायुमरणं सुग्रीवसंभाषणम् बालीनिर्दलनं समुद्रतरणं लङ्कापुरीदहनम् पश्चाद् रावणकुम्भकर्णहननम् एतद्धि रामायणम् सुग्रीवसंभाषणम् बालीनिर्दलनं समुद्रतरणं लङ्कापुरीदहनम् पश्चाद् रावणकुम्भकर्णहननम् एतद्धि रामायणम्।